नित्येकाक्षरं ब्रह्माग्निर्देवता ब्रह्म इत्यार्षं गायत्रं छन्दं परमात्मं स्वरूपं सायुज्यं विनियोगं आयातु वरदा देवी अक्षरं ब्रह्मसंमितं गायत्रीं छन्दसां मातेदं ब्रह्मजुषस्वमे यदन्हात् कुरुते पापं तदन्हात् प्रतिमुच्यते यद्रात्रियात् कुरुते पापं तद्रात्रियात् प्रतिमुच्यते सर्ववर्णे महादेवी संध्याविद्ये सरस्वती ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरविभूरो गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहयामि छन्दर्षीनावाहयामि श्रियमावाहयामि गायत्र्या गायत्री छन्दो विश्वामित्रऋषिः सविता देवता अग्निर्मुखं ब्रह्माशिरो विष्णुर्हृदयगं रुद्रशिखा पृथिवी योनिः प्राणापानौ व्यानोदानसमाना सप्राणा श्वेतवर्णा साङ्ख्यान सगोत्रा गायत्री चतुर्विगुं सत्यक्षरा त्रिपथा षट्कुक्षिः पञ्चशीर्षोपनयने विनियोगः ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐमापो ज्योतिरसोऽमृतं ब्रह्म भूर्भुवः सुवरोः।